विंशतितमोऽध्यायः शुद्धबोधात्मस्वरूपे स्वस्मिन् प्रमातृप्रमेयादीनि द्वन्द्वानि त्रिपुट्यः कर्माणि लोकः जीवाः माया संसारः मोक्षः इत्यादि विकल्पपरम्पराः न सन्तीति जनकस्य डिण्डिमघोषः। जनक उवाच: क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः क्व शून्यम् क्व च नैराश्यम् मत्स्वरूपे निरञ्जने क्व शास्त्रम् क्वात्मविज्ञानम् क्व वा निर्विषयम् मनः क्व तृप्तिः क्व वितृष्णत्वम् गतद्वन्द्वस्य मे सदा क्व विद्या क्व च वा विद्या क्वाहम् क्वेदम् मम क्व वा क्व बन्धः क्व च वा मोक्षः स्वरूपस्य क्व रूपिता क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा क्व तद्विदेहकैवल्यम् निर्विशेषस्य सर्वदा क्व कर्ता क्व च वा भोक्ता निष्क्रियम् स्फुरणम् क्व वा क्वापरोक्षम् फलम् वा क्व निःस्वभावस्य मे सदा क्व लोकः क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा क्व बद्धः क्व च वा मुक्तः स्वस्वरूपे अहमद्वये क्व सृष्टिः क्व च संहारः क्व साध्यम् क्व च साधनम् क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये क्व प्रमाता प्रमाणम् वा क्व प्रमेयम् क्व च प्रमा क्व किञ्चित् क्व न किञ्चिद्वा सर्वदा विमलस्य मे क्व विक्षेपः क्व चैकाग्र्यम् क्व निर्बोधः क्व मूढता क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे क्व चैष व्यवहारो वा क्व च सा परमार्थता क्व सुखम् क्व च वा दुःखम् निर्विमर्शस्य मे सदा क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे क्व प्रवृत्तिर्निवृत्तिर्वा क्व मुक्तिः क्व च बन्धनम् कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा कोपदेशः क्व वा शास्त्रम् क्व शिष्यः क्व च वा गुरुः क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे क्व चास्ति क्व च वा नास्ति क्वास्ति चैकम् क्व च द्वयम् बहुनात्र किमुक्तेन किञ्चिन्नोत्तिष्ठते मम। ॐ इति अष्टावक्र संहिता समाप्ता।